ओम नमो भगवते वासुदेवाय। अथ चतुष्षष्टितमोऽध्यायः। श्रीशुक उवाच, एकदोपवनम् राजन् जग्मुर्यदु कुमारकाः, विहर्तुम् साम्ब प्रद्युम्न चारुभानुगदादयः, क्रीडित्वा सुचिरम् तत्र विचिन्वन्तः पिपासिताः, जलम् निरुदके कूपे ददृशुः सत्त्वमद्भुतम्, कृकलासम् गिरिनिभम् वीक्ष्य विस्मितमानसाः, तस्य चोद्धरणे यत्नम् चक्रुस्ते कृपयान्विताः, चर्मजैस्तान्तवैः पाशैर्बद्ध्वा पतितमर्भकाः, नाशक्नुवन् समुद्धर्तुम् कृष्णाया चक्षुरुत्सुकाः, तत्रागत्यारविन्दाक्षो भगवान् विश्वभावनः, वीक्ष्योज्जहारवामेन तम् करेण सलीलया, स उत्तमश्लोककराभिमृष्टो विहाय सद्यः कृकलासरूपम्, सन्तप्तचामी करचारुवर्णः स्वर्ग्यद्भुतालङ्करणाम्बरस्रक् पप्रच्छ विद्वानपि तन्निदानम् जने सुविख्यापयितुम् मुकुन्दः, कस्त्वम् महाभागवरेण्यरूपो देवोत्तमम् त्वाम् गणयामि नूनम्, दशामि माम् वा कतमेन कर्मणा सम्प्रापितोऽस्य तदर्हः सुभद्र, आत्मानमाख्याहि विवित्सताम् नो यन्मन्यसे न क्षममत्र वक्तुम्। श्रीशुक उवाच, इति स्म राजा सम्पृष्टः कृष्णेनानन्तमूर्तिना, माधवम् प्रणिपत्याः किरीटेनार्कवर्चसा। नृग उवाच, नृगो नाम नरेन्द्रोऽह मिक्ष्वाकुतनयः प्रभो, दानिष्वाख्यायमानेषु यदि ते कर्णमस्पृशम्, किम् नु ते विदितम् नाथ सर्वभूतात्मसाक्षिणः, कालेनाव्याहतदृशो वक्ष्येथापि तवाज्ञया, यावत्यसि कृता भूमेर्यावत्यो दिवि तारकाः, यावत्यो वर्षधाराश्च तावती रददाम् स्मगाः, पयस्विनीस्तरुणी शीलरूपगुणोपपन्नाः कपिला हेमशृङ्गीः, न्यायार्जिता रूप्यखुराः सवत्सा दुकूलमालाभरणा ददावहम्, स्वलङ्कृतेभ्यो गुणशीलवद्भ्यः सीदत्कुटुम्बेभ्य ऋतव्रतेभ्यः, तपःश्रुतब्रह्मवदान्यसद्भ्यः प्रादाम् युवभ्यो द्विजपुङ्गवेभ्यः, गोभूहिरण्यायतनाश्वहस्तिनः कन्या सदासीस्तिलरूप्यशय्याः, वासांसि रत्नानि परिच्छदान् रथानिष्टम् च यज्ञैश्चरितम् च पूर्तम्, कस्यचिद्विजमुख्यस्य भ्रष्टा गौर्मम गोधने, सम्पृक्ता विदुषा सा च मया दत्ता द्विजातये, ताम् नीयमानाम् तत्स्वामी दृष्ट्वो वाच ममेति तम्, ममेति प्रतिग्राह्याः नृगो मे दत्तवानिति, विप्रौ विवदमानौ मामूचतुः स्वार्थसाधकौ, भवान् दातापहर्तेति तच्छ्रुत्वा मे भवद्भ्रमः, अनुनीता बुभौ विप्रौ धर्मकृच्छ्रगतेन वै, गवाम् लक्ष्यम् प्रकृष्टानाम् दास्याम् मेषा प्रदीयताम्, भवन्तावनुगृह्णीताम् किङ्करस्या विजानतः, समुद्धरतमाम् कृच्छ्रात् पतन्तम् निरयेषु चौ, नाहम् प्रतीच्छे वै राजन्नित्युक्त्वा स्वाम्यपाक्रमत्, नान्यद्गवामप्ययुतमिच्छामीत्यपरो ययौ, एतस्मिन्नन्तरे याम्यैर्दूतैर्नीतो यमक्षयम्, यमेन पृष्टस्तत्राहम् देवदेव जगत्पते, पूर्वम् त्वमशुभम् भुङ्क्षे उताहो नृपते शुभम्, नान्तम् दानस्य धर्मस्य पश्ये लोकस्य भास्वतः, पूर्वम् देवाशुभम् भुञ्ज इति प्राहपतेति सः, तावदद्राक्षमात्मानम् कृकलासम् पतन् प्रभो, ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव, स्मृतिर्नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिनः, सत्त्वम् कथम् मम विभो क्षिपथ परात्मा योगेश्वरैः श्रुतिदृशामलहृद्विभाव्यः, साक्षादधोक्षज उरुव्यसनान्धबुद्धेः स्यान्मेनु दृश्य इह यस्य भवापवर्गः, देवदेव जगन्नाथ गोविन्द पुरुषोत्तम, नारायण ऋषिकेश पुण्यश्लोकाच्युताव्यय, अनुजानीहि माम् कृष्ण यान्तम् देवगतिम् प्रभो, यत्र क्वापि सतश्चेतो भूयान्मे त्वत्पदास्पदम्, नमस्ते सर्वभावाय ब्रह्मणे नन्तशक्तये, कृष्णाय वासुदेवाय योगानाम् पतये नमः, इत्युक्त्वा तम् परिक्रम्य पादौ स्पृष्ट्वा स्वमौलिना, अनुज्ञातो विमानाग्र्यमारुहत् पश्यताम् दृणाम्, कृष्णः परिजनम् प्राह भगवान् देवकीसुतः, ब्रह्मण्यदेवो धर्मात्मा राजन्याननु शिक्षयन्, दुर्जरम् बत ब्रह्मस्वम् भुक्तमग्नेर्मनागपि, तेजीयसोऽपि किमुत राज्ञामीश्वरमानिनाम्, नाहं हलाहलं मन्ये विषं यस्य प्रतिक्रिया ब्रह्मस्वं हि विषं प्रोक्तं नास्य प्रतिविधिर्भुवि हिनस्ति विषमत्तारं वह्निरद्भिः प्रशाम्यति कुलं समूलं दहति ब्रह्मस्वारणिपावकः ब्रह्मस्वं दुरनुज्ञातं भुक्तं हन्ति त्रिपूरुषम् प्रसय्यतु बलात् भुक्तं दशपूर्वान् दशापरान् राजानो राजलक्ष्म्यान्धानात्मपातं विचक्षते निरयं येऽभिमन्यन्ते ब्रह्मस्वं साधु बालिशाः विण्णन्ति यावतः पांसून् क्रन्दतामश्रुबिन्दवः विप्राणां हृतवृत्तीनां वदान्यानां कुटुम्बिनां राजानो राजकुल्याश्च तावतोऽब्दान्निरङ्कुशाः कुम्भीपाकेषु पच्यन्ते ब्रह्मदायापहारिणः स्वदत्तां परदत्तां च ब्रह्मवृत्तिं हरेच्च यः षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः न मे ब्रह्मधनं भूयात् यद्गृध्वाल्पायुषो नराः पराजिता स्युता राज्याद् भवन्त्युद्वेजिनो हयः विप्रं कृतागसमपि नैव द्रुह्यत मामकाः घ्नन्तं बहुशपन्तं वा नमस्कुरुत नित्यशः यथाहं प्रणमे विप्रा ननु कालं समाहितः तथा नमत यूयं च योऽन्यथा मे स दण्डभाक् ब्राह्मणार्थो यपहृतो हर्तारं पातयत्यधः अजानन्तमपि येनं नृगं ब्राह्मण गौरिव एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकसः पावनः सर्वलोकानां विवेश निजमन्दिरम् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे नृगोपाख्यानं नाम चतुःषष्टितमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।